ज्ञान विज्ञान योग श्री भगवानुवाच मज्जाशक्तमना पार्थ योगंजन मदाश्रया असंशय समग्रमांग यथा ज्ञाशित श्रेणु ज्ञानं तेहं सविज्ञानमिदं मुख्यामशीषतः यजगत्ता ने भूयो न ज्ञातव्यम् अवशिष्यते मनुष्याणां सहस्रेषु कश्चित् जदति सिद्धये जदतामपि सिद्धानां कश्चिन्मां वेत्ति तत्तथा भूमिरापो नलु वायुः खङ्गमनो बुद्धिरेव च अहंकार इति भिन्ना प्रकृतिरष्टधा अपरेयमितस्तन्यांग प्रकृति विद्धि मे परां जीवभूतांग महाबाहो जयेदंधार्यते जगत् एतज्जोनीनि भूतानि सर्वाणि त्वधारय अहं कृष्णस्य जगतः प्रभवः प्रलयस्तथा मत्तः परतरङ्गनान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव रसोऽहमप्सु कौन्तेय प्रभास्मि सूर्यय प्रभवः सर्ववेदेषु शब्दक्षेपौरिशूनिषु पुण्यो गन्नप्रदीप्यां च तेजश्चास्मि विभावसु जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु बीजमं सर्वभूतानां विद्धि पार्थ सनातनं बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् बलं बलवतां चाहं कामराग विवर्जितं धर्माविरुद्धभूतेषु कामोऽस्मि वरदर्शव ये चैव सात्विका भावा राजसा तमसाश्च हि मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि त्रिभिर्गुणैर्मयैर्भावै एभि सर्वमिदं जगत् मोहितं नाभिजानाति मामेभ्यो परमभयं दैवी हेषा गुणमयि मम माया दुरत्वया मामेव ये प्रपद्यन्ते मया मेतां तरन्ति ते नामां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमः मायापहृतज्ञानः आशुरंग भावमाश्रिता चतुर्विधा भजन्ते मां जना सुकृतिनोर्जुन आस्तु जिज्ञासुरार्थार्थी ज्ञानी च भरतर्षव तेषां ज्ञानी नित्यजुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्तर्थ महं स च मम प्रिय उदारा सर्वये वैते ज्ञानितात्मैव मे मतम् आश्रित स हि युक्तात्मा मामे भानुत्तमाङ्गतिं बहुनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा सुदुर्लभः कामस्तैर्हितज्ञानः प्रपद्यन्तेऽन्येव अन्नदेवता टङ्गटङ्गनियममास्थाय प्रकृत्या नियता स्वया जो जो जं जं तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलं श्रद्धां तामेव विदधाम्यहं सत्वया श्रद्धया युक्त तस्याराधनमीहते लभते च ततः कामान् मयैव विहितान् हितान् अन्तवत्तु फलं तेषां तद्भवत्तल्पमेधसां देवान् देवजजो जान्ति मद्भक्ता जान्ति मामपि अभक्तं व्यक्तिमापन्नं मन्नन्ते मामबुद्धया परं भावमजानन्तु ममापय मनुत्तमम्। नांग प्रकाश सर्वस्य योग माया समावृतः मूरो यंग नाभि जानाति लोकमाम अजम भयम् वेदाहं सामतीतानि वर्तमानानि चार्जुन भविष्यानि च भूतानि मन्तु वेद न कश्चन इच्छा देश समुत्थेन दंडमोहेन भारत सर्वभूतानि सम्मोहं सर्गे जान्ति परन्तप येषां दन्तगतं पापं जनानां पुण्यकर्मणां ते दन्तमहनिर्मुक्ता भजन्ति मां दृढव्रता जरामरणमुक्खाय मामाश्रित्य जतन्ति ये ते ब्रह्म तद्विदुः कृष्णमध्यात्मं कर्म चाखिलम् साधिभूताधिदैवं मां साधिजज्ञं च ये विदुः प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसा इति श्रीमहाभारतीसप्तसहस्रं संहितायां वैयासिकं भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगनाम सप्तमोऽध्यायः।